एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। संघीय संसदः शीतकालिकम् अधिवेशनम् ह्यस्तना दिवसात् प्रारब्धमस्ति। नयाँ वानेश्वरवर्तिनी संघीय संसद भवने प्रारब्धे अधिवेशने प्रतिनिधि सभायां सभामुखिन देवराज घिमिरे विदेन राष्ट्रिय सभायां अध्यक्षेण नारायण प्रसाद दाहालेन च राष्ट्रपतेः कार्यालयात् प्राप्तं संसद अधिवेशन आह्वान सम्बन्धी पत्रम् श्रावितम् आसीत्। प्रतिनिधि सभायाः ह्य प्रारब्धम् उपवेशम् सम्बोधयन् प्रधानमन्त्री केपी शर्मा ओली देशे राजनीतिक स्थिरतायै विकासाय च विपुल दलद्वय मिलित्वा वर्तमान सर्वकार संघटितो स्थिति स्पष्टीकुर्वन् सर्वकारस्य सम्प्रत्यैव विघटनस्य सम्भावना नास्ति इति अवोचत्। प्रधानमन्त्री ओली वर्तमान सत्ता गठबन्धनस्य सर्वकार आगामि निर्वाचनम् यावत् स्थास्यति त्यत विषयेऽस्मिन् चर्चाम् कृत्वा समयम् न यापयितुम् विपक्षी दलानि अन्वरुणात्। प्रधानमन्त्री ओली संसद अभावस्य समये राष्ट्रियम् लक्ष्यम् अधिगन्तुम् विलम्बनस्य सम्भावनया अध्यादेशाः आनीताः सन्ति इति समस्पष्टयत्। प्रधानमन्त्री ओली अध्यादेशानाम् माध्यमेन तत्कालम् आर्थिकस्य व्यावसायिकस्य च वातावरणस्य सुधारम् कृत्वा विभिन्न विषयाणि एकोनत्रिंशत् अधिनियमानि संशोधितानि सन्ति इति आज्ञापयत्। प्रधानमन्त्री ओली वर्तमान सर्वकारस्य घटनस्य पश्चात् अवरुद्धेभ्यः कतिपय विकास निर्माणस्य कार्येभ्यः तीव्रता प्रदत्ता अस्ति इति अवोचत्। एवमेव प्रतिनिधिसभायाः उपवेशम् सम्बोधयन् नेपाली कांग्रेस संसदीय दलस्य नेता पूर्व प्रधानमन्त्री च शेरबहादुर देउवा देशे राजनीतिक स्थिरताम् संस्थाप्य देशम् विकासम् समृद्धिम् च प्रति अग्रे नेतुम् नेपाली कांग्रेस नेकपा एमाले दलाभ्याम् सर्वकार संघटनीयोभूत इति समस्पष्टयत्। उपवेशे नेकपा माओवादी केन्द्रस्य प्रमुख सचेतक पदीयो हितराज पाण्डे संसद समितौ विचाराधीन विधेयकस्य प्रत्यावर्तनेन विनैव अध्यादेशस्य आनयनम् प्रति विरोधम् अज्ञापयत्। नेकपा एमाले दलस्य सांसद योगेश कुमार भट्टराई अध्यादेशस्य माध्यमेन लब्ध जन्मना दलेन अध्यादेश समीचीन विषयो नास्ति इति उक्त विहितम् टिप्पणीम् आश्चर्यकरम् अस्ति इति अभासत। राष्ट्रिय स्वतन्त्र दलस्य सांसद स्वर्णिम वाग्ले सर्वकारेण प्रतिपक्षी दलैस्सह प्रतिशोधस्य भावनया कार्यम् विधीयमानमस्ति इति आरोपयत्। एवमेव राप्रपा दलस्य सांसद राजेन्द्र लिङ्गेन सर्वकारेण सहसा अध्यादेशा आनीता इति आरोपयन् अध्यादेशानाम् अनिवार्यतया आनयनस्य अवस्थायां सत्याम् संसदि प्रतिनिधित्व कुर्वताम् दलानाम् सहमत्या एव आनयनम् उचितम् भवति स्म इति अवोचत्। उपवेशे दलीयाधारेण सांसदः नेकपा एकीकृत समाजवादी दलस्य राजेन्द्र प्रसाद पाण्डे जनता समाजवादी दलस्य अशोक राई जनता समाजवादी दल नेपालस्य राजकिशोर यादव जनमत दलस्य सीके राउत लोकतान्त्रिक समाजवादी दलस्य सांसद सर्वेन्द्रनाथ शुक्ल नागरिकोन्मुक्ति दलस्य सांसद गंगाराम चौधरी राष्ट्रिय जनमोर्चा दलस्य सांसद चित्रबहादुर केसी नेपाल मजदूर किसान पार्टी इति दलस्य सांसद प्रेम सुवाल आम जनता पार्टी इति दलस्य सांसद प्रभु शाह स्वतन्त्र सांसद अमरेश कुमार सिंह स्वधारणाम् उपस्थापयन्। तत्पूर्वम् उपवेशस्य प्रारम्भेण सहैव रासुपा दलस्य सांसदै प्रारम्भे एव वक्तुम् समयस्य याचनाम् उपस्थाप्य विरोधः ज्ञापितः आसीत्। परम् सभामुखेन देवराज घिमिरे विधेन दलीयाधारेण वक्तुम् समयः प्रदास्यते इति सूचनाम् प्रदाय विरोधस्य मध्ये उपवेशस्य अग्रे वर्धनानन्तरम् कतिपय समयस्य कृते रासुपा दलस्य सांसदः उपवेशम् त्यक्ता बहिः निष्क्रान्ताः आसन्। कतिपय समयानन्तरम् उपवेशे पुनः सहभागितायाः अनन्तरम् रासुपा दलस्य पक्षतः सांसदेन स्वर्णिम वाग्ले इत्यनेन उपवेशः सम्बोधितः आसीत्। प्रतिनिधिसभायाः अपर उपवेशः अस्यैव माघ मासस्य आगामिनि चतुर्विंश दिवसे बृहस्पतिवासरे वस्ता। राष्ट्रियसभायाः सप्तदशम् अधिवेशनम् ह्यस्तना दिवसात् प्रारब्धमस्ति। उपवेशस्य प्रारम्भे सम्बोधयन् अध्यक्षः नारायण प्रसाद दाहालः अधिवेशनेऽस्मिन् विचाराधीनानि विधेयकानि प्राथमिकतापूर्वकम् निष्कर्षे नेष्यन्ते इत्यभाषत। संघीय संसदः द्वयोः सदनयोः उपवेशयोः सम्प्रत्येव क्रियान्विताः अध्यादेशाः प्रस्तुताः सन्ति। उपवेशे प्रधानमन्त्रिणः केपी शर्मा ओलिनः पक्षतः संचार सूचना प्रविधि मन्त्रिणा पृथ्वी सुब्बा गुरूङ इत्यनेन सुशासन प्रवर्धन सार्वजनिक सेवा प्रवाह सम्बद्धानां केषाञ्चित् नेपाल अधिनियमानां संशोधनाय निर्मितः अध्यादेशः प्रस्तुतोऽस्ति। संसदः द्वयोः सदनयोः उपवेशयोः उपप्रधानार्थमन्त्रिणा विष्णुप्रसाद पौडेलेन एतद्विक्रमवर्षीय आर्थिक कार्यविधि वित्तीयोत्तरदायित्व प्रथम संशोधनाध्यादेशः नैजकरण सम्बद्ध प्रथम संशोधनाध्यादेशः आर्थिक व्यावसायिक वातावरण सुधार निवेशाभिवृद्धि सम्बद्धानां केषाञ्चित् नेपालाधिनियमानां संशोधनाय निर्मितः अध्यादेशश्च प्रस्तुतोऽस्ति। एवमेव उपवेशे भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्रिणा बलराम अधिकारिणा सहकारी सम्बद्धानां केषाञ्चित् नेपालाधिनियमानां संशोधनाय निर्मितः अध्यादेशः भू सम्बद्धानां केषाञ्चित् नेपालाधिनियमानां संशोधनाय निर्मितः अध्यादेशश्च प्रस्तुयताम्। संघीय संसदः द्वयोः सदनयोः उपवेशाभावे तत्कालं कस्यचन कार्यस्य आवश्यकतायां सत्यां सर्वकारस्य संस्तुतौ राष्ट्रपतिना अध्यादेशः क्रियान्विता विधीयन्ते, ततः समनन्तरमेव जायमाने संसदः उपवेशे अध्यादेश प्रस्तुतेः सांविधानिकी व्यवस्था वर्तते। एवमेव राष्ट्रियसभायाः ह्यस्तनोपवेशे विधायन व्यवस्थापन समितेः सभापति तुलसा कुमारी दाहालः गत विक्रमवर्षीयं मीडिया काउन्सिल विधेयकं नवीकरणीयोर्जा दक्षता सम्बद्धम् एतद्विक्रमवर्षीयं विधेयक सम्बद्धं समितेः प्रतिवेदनं च प्रस्तौत्। राष्ट्रियसभायाः अपरोपवेशः रविवासरे दिवा सपादैकवादने वस्ता। सर्वकारेण भक्तपुर जनपदे बाल न्यायालयस्य स्थापनायै निर्णीतं वर्तते। अशैव माघमासस्य पञ्चदशे दिवसे उपविष्टस्य मन्त्रिपरिषदः उपवेशस्य निर्णयानुसारेण आगामिनो विक्रमवर्षस्य वैशाखमासस्य द्वितीय दिवसात् बाल न्यायालयः सञ्चालयिष्यते। सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ ह्य मन्त्रिपरिषद निर्णयान् सार्वजनिक कुर्वन् बाल बालिका सम्बद्धानाम् अधिनियमानाम् अनुसारेण काष्ठमण्डप ललितपुर भक्तपुर काभ्रेपलाञ्चोक जनपदानां न्यायालयस्य बाल न्यायपीठान् अवलोकनीयानाम् अभियोग पत्राणाम् प्रादेशिक क्षेत्राधिकारं संरक्ष्य भक्तपुर जनपदे बाल न्यायालयस्य स्थापनायै निर्णयो विहितोऽस्ति इति अज्ञापयत्। एवमेव उपवेशेन प्रधानमन्त्री मन्त्रिपरिषदः कार्यालयस्य तदन्तर्गतानां कार्यालयानां च संघटन व्यवस्थापनयोः सर्वेक्षणार्थं पूर्वस्वीकृत्यर्थञ्च विश्वकोषाद् हरितोत्थानशील समावेशी विकास कार्यक्रमस्य कृते विश्वकोषस्य विकास नित्यनुरूपं दशकोटि अमेरिका देशीय डलर मुद्रा सौविध्यपूर्णं ऋणं स्वीकर्तुं निर्णीतमस्ति। अत्रान्तरे संचार सूचना प्रविधि मन्त्रालयेन वर्तमान सर्वकार संघटनस्य द्वितीय शतदिवसेषु शतप्रतिशतं कार्यसम्पादनं विहितमस्ति इति ज्ञापितम् अवर्तते। ह्य आयोजिते पत्रकार सम्मेलने कार्यसम्पादन विवरणं सार्वजनिकी कुर्वन्ति मन्त्रालयस्य सचिवः राधिका अर्यालः मन्त्रालयेन शतदिवसाभ्यन्तरे सर्वकारेण निर्धारितानि शतप्रतिशतं कार्याणि सम्पादितानि सन्ति इति उक्तवती। स्वास्थ्य जनसंख्या मन्त्रालयेन रोगिणाम् एकस्यैव परीक्षणस्य अपरावर्तनत्वेन एकीकृत वैद्युत प्रणाली क्रियान्वीयते। स्वास्थ्य मन्त्री प्रदीप पौडेलः एकस्मिन् स्थाने विहितस्य रोगिणः परीक्षण सम्बद्धं सूचनं वैद्युत माध्यमेन सर्वासु स्वास्थ्य संस्थासु प्रापणत्वेन एकीकृत प्रणाल्याः क्रियान्वयनाय निर्णीतं वर्तते। मन्त्री पौडेलः प्रमाणित वैद्युत चिकित्सा अभिलेख प्रणाल्या एतद्विक्रमवर्षीया संचालन व्यवस्थापन निर्देशिकया रोगिणां द्वितीय परीक्षणस्य समापनत्वेन स्वास्थ्य सम्बद्ध नीति निर्माणाय एकीकृत तथ्याङ्का प्राप्स्यन्ते इति समस्पष्टयत्। मन्त्रालयस्य प्रवक्ता डाक्टर प्रकाश बुढाथोकी एकीकृताभिलेखनस्य प्रारम्भणे सति सेवा प्रदायकेभ्य सेवाग्राहिभ्यश्च दीर्घ प्रपत्र प्रक्रियातः सहजता भविष्यति इति धारणाम् उपस्थापयत्। इति समाचारः।